तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योपाकरोत्तं प्रबलं मुनीनां पतञ्जलिं